हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्वजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनपधामिनीम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषाण्यहम् अश्वपूर्वाम् यदमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपक्वये श्रीर्मा देवी जुषताम् आम् सोऽस्मिताम् हिरण्यप्राकाराम् आर्द्राम् जरन्ति प्रत्ताम् तर्पयन्ति पद्मे स्थिताम् पद्मवर्णाम् दामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन् देवश्रियम् लोके देवजुष्टामुधाराम् ताम् पद्मिनीभिम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिघातो वनस्पतिस्तव वृक्षोदभिल्वः तस्य बलानि तपसानुदन्तु मायाम् दधायाश्च भाग्या लक्ष्मीः उपैतु माम् देवसहकृष्य मणिनाशः नादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृत्युम् दधातु मे सुर्पिपासामलान् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाम् निर्णुद मे गृहात् दन्तद्वाराम् दुरादर्शान् नित्यपुष्टाम् कलेशिणीम् ईश्वरेकम् सर्वभूतानाम् कामिकोपक्वये श्रियम् मनसत्तामहोदिम् भाज सत्यमशेमहे अशूनाम् लोकमन्नस्य महे श्रेश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्लेदवस मे गृहे निज देवी मातरग्रश्रियम् वासय मे कुले आद्याम् यष्करणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह आर्द्राम् पुष्करणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनपधामिनीम् यस्याम् हिरण्यम् प्रबोधम् गावो धास्योऽश्वाने विन्देयम् पुरुषानहम् पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मधलाय काक्षी विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मम् मयि सन्निधस्व महादेवे च विद्महे विष्णुपत्ने च धीमहि अन्यो लक्ष्मी प्रचोदयात् श्रीवक्षस्वमायुष्यमालोक्यमाविधाच्छोभमानम् महीयते धान्यम् धनम् पशुम् बहुपुत्रलाभम् सदसम् वत्सरम् दीर्घमायुः।